श्री गुरुभ्यो नमः हरि
श्री ब्रह्मांड पुराणांतर्गत श्री प्रह्लाद कृत श्री नृसिंह कवचम नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकं ध्यात्वा नृसिंहं देवेशम् हेमसिंहासनस्थितं विवृथास्यं त्रिनयनं शरदिन्दुसमप्रभं लक्ष्म्यालिङ्गितवामाङ्गं विभूतिविरूपाश्रितं चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् सरोजशोभितोरस्कं रत्नकेयूरमुद्रितं तप्तकाञ्चनसङ्काशं पीतनिर्मलवाससं इन्द्रादिसुरमौलिस्त स्फुरन्माणिक्यदीप्तिभिः विराजितपदद्वन्द्वम् शङ्खचक्रादिहेतिभिः घरुत्मता च विनयात् स्तूयमानं मुदान्वितम् स्वहृत्कमलसंवासं कृत्वा तु कवचं पतेत् नृसिंहो मे शिरः पातु लोकरक्षात्मसम्भवः सर्वगोपीस्तम्भवासः फालं मे रक्षतु ध्वनिं नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः स्मृतिं मे पातु नृहरिः मुनिपर्यस्तुतिप्रियः नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः सर्वविद्यादिपः पातु नृसिंहरसनां मम वक्त्रं पाद्विन्दुवदनः सदा प्रह्लादवन्दितः नृसिंहः पातु मे कण्ठं स्कन्दौ भूभरणान्तकृत् दिव्यास्त्रशोभितभुजः नृसिंहः पातु मे भुजौ खरौ मे देववरदो नृसिंहः पातु सर्वतः हृदयं योगिसाद्यश्च निवासं पातु मे हरिः मद्यं पातु हिरण्याक्ष वक्षकुक्षिविधारणः नाभिं मे पातु नृहरिः स्वनापी ब्रह्म संस्तुतः ब्रह्माण्डकोटयकट्यां यस्यासौ पातु मे कटिं गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक् गुरुमनोभवः पातु जानुनी नररूपदृत् जङ्गे पातु दराबार हर्तायोऽसौ नृकेसरी सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् महाग्रपूर्वतः पातु महावीराग्रजोग्नितः महाविष्णुर्दक्षिणेतु महाज्वालस्तु नैरृतौ पश्चिमे पातु सर्वेषो दिशि मे सर्वतो मुखः नृसिंह पातु वायव्यां सौम्यां भूषण विग्रहः ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः संसारभयतः पातु मृत्योर्मृत्युर्नृखेसरी इदं नृसिंहकवचं प्रह्लादमुखमण्डितं भक्तिमान् यः पठेन्नित्यं सर्वपापैः प्रमुच्यते पुत्रवान् धनवान् लोके दीर्घायुरुपजायते यं यं कामयते कामं तं तं प्राप्नोत्य संशयम् सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् भूम्यन्तरिक्षदिव्यानां ग्रहाणां विनिवारणं वृष्टिकोरकसम्भूत विषापहरणं परं ब्रह्मराक्षसयक्षाणां धूरोत्सारणकारणम् भोर्जे वातालपात्रे वा कवचं लिखितं शुभं करमूले द्रुतं येन सिद्ध्येयू कर्मसिद्धयः देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मनां नृणां कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिप्रजायते अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च प्राशयेद्यो नरो मन्त्रं नृसिंहज्ञानमाचरन् तस्य रोगा प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः किमत्र बहुनोक्तेन नृसिंहः सदृशो भवेत् मनसा चिन्तितं यत्तु स तच्चाप्नोत्य संशयम् गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हटन्तं रूप्यन्तं तापयन्तं दिवि भुविदितिजं क्षेपयन्तं क्षिपन्तं क्रन्थन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं धीक्षन्तं घूर्णयन्तं करनिकरशतैर्दिव्यसिंहं नमामि इति श्रीब्रह्माण्डपुराणे श्रीप्रह्लादकृतं श्रीनृसिंहकवचं सम्पूर्णम्।
हरिः ॐ तत्सत्।